ततिगुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ओम् ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यदा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचददि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय वीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्जा यास्य देहस्त इषव पराता भगवो वप अवतत्य धनुस्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुका शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आबुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तया स्वान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्यु जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पदये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पदये नमो नमः सस्मिञ्जराय त्विषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तताविने क्षेत्राणाम् पतये नमो नमः सूतायान्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्नीनाम् पतये नमो नम कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहवानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुमाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वंशते परिवंशते स्थायोनाम् पतये नमो नमो निचेन मे परिचरायारण्यानाम् पतये नमो नम सृकावेभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आज्ञाधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् हदेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपतेभ्यश्च वो नमो नमः सेनाभ्यसेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रजकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्ठाय च नमो मीनुष्टमाय चेषुमते च नमो रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय च वत्स्वन्याय च नमः श्रोतस्याय च वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च ववृन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो वृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धीमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोऽद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च पेण्याय च नमः त्रिगत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम त्रिगुंशिलाय च क्षयलाय च नम कपद्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशव्याय च नमो पगुरवाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीरकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नमामि वत्केभ्यः त्रापे अन्धलस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मामेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपद्दिने क्षयद्वीराय प्रवरामहे मतिम् यदा नश्यमसद्विपदे जदुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो धनो मयस्कृति क्षयद्वीराय नमसा विदेमते यच्चम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रमा विदो वदेरविश्वन्तो नमसा विदेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधिगदेव ब्रूह्यदा च न शर्म यच्च विवरा सुश्रुतम् गर्तसदम् युवानम् नृगन्न भीममुपहत्नुमुग्रम् नृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मदिरगायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीडस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुसन्निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदागहि विगृदमिलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोर्यमस्मन्निव पञ्चुताः सहस्राणि सहस्रदा बाहुस्तव हेतयः तासामीशानो भगवः पराचीना मुकाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयो जने वधन्वानि धन्वसे अस्मिन्महत्यर्णवेन्दरिक्षे भवानि नीलग्रीवा श्रीकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा श्रीकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासत्कपर्दिनः ये अन्येषु विवद्यन्ति पात्रेषु विपतो जनान् ये पदाम्बलिरक्षय ऐलभृदायव्युदः ये दीर्तानि प्रचरन्ति सृगावन्तोनि सङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसहस्रयो जने वधन्वानि धन्वसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो दीचेर्दशो द्वास्तेभ्यो नमस्ते नो मृळयन्तु देयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना नृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाभिमेष तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रोमा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यस्व सुदन्वायो विश्वस्य क्षयनिमेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयगु शिवाविमर्शनः ॐ शान्ति 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 ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिदिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे द्रक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे लुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोऽश्च मे प्रसोऽश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेदिश्च मे ఋషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ ఔద్భిత్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే క్షుచ్చ మే ్రీహయశ్చ మేయవాశ్చ మే మాశాశ్చ మే తిరాశ్చ మే ముద్దాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అశ్మాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే సికతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే సీసం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మ ఆపశ్చ మే వీరుధశ్చ మ ఔషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతామ్ విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మ ఏమశ్చ మ ఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మే లాభ్యశ్చ మే ధిపతిశ్చ మ ఉపాగుంసుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మాశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుదుగ్రహాశ్చ మే దిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మహేంద్రశ్చ మాదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణీయాశ్చ మే సృజశ్చ మే తమసాశ్చ మే జ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే ధిషవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే భూతవృక్ష మ ఆధవనీయశ్చ మ ఆదీర్ద్రం చ మే అభిర్ధారం చ మే గృహాశ్చ మే సదశ్చ మే పురోణాశాశ్చ మే పచతాశ్చ మే వృదశ్చ మే స్వరాకారశ్చ మే अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दृतिश्च मे दृतिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रशन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्ठवाच्च मे पष्ठौहे च मवुक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च मयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वारश्च प्रसवश्चाबीजश्च क्रतुश्चतुरश्च मूर्धा च व्यस्तियस्यान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुंसिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगु शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतोज्यायागश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वदैपुरुषः पादोऽस्येह भवात्पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्म शरद्दर्हि सप्तास्यासन् परिधयः त्रिसप्त समिदः कृताः देवा यज्ञम् तन्वानाः अभद्रम् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्माज्ञा सर्वहुतः संहृतम् वृषदार्ज्यम् पशुगुस्ताविश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यपदुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का वोरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहारः शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साद्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विगदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेकम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजारन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मणिषाना अमुम् मणिषाना सर्वम् मणिषाना तच्छय्योरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्सि ॐ शान्ति शान्ति शान्तिः ॐ अग्निमीरे पुरोहितम् यज्ञस्य देवमृत्विजम् होदारम् रत्नदातमम् ऋग्वेदात्मने सूर्यनारायण स्वामिने नमः इषेत्वोर्जे त्वा पायवस्थो पायवस्थ देवो वः सविता प्रार्थयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायण स्वामिने नमः अग्न आयाहि वीतये गृढानो हव्यदातये निहोता सत्सि बर्हिषि सामवेदात्मने सूर्यनारायण स्वामिने नमः शन्नो देवेनभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायण स्वामिने नमः वृणसौर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरम् द्विसद्रसम् सत्यम् वै तद्रसवापोचो तीरसोऽमृतम् ब्रह्मवोर्भुवस्सुवरो छायासुवच्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः करनिर्विश्वदर्शनो ज्योतिष्कृतविसूर्या विश्वमाभासिलोचनम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष देयो निसूर्याय त्वा भ्राजस्वते ఛాయాసు వచ్చలాంబాసమేత శ్రీ సూర్యనారాయణ స్వామినే నమః. ఓం హ్రాం ఉద్యన్నద్య మిత్రమః మిత్రాయ నమః. ఓం హ్రీం ఆరోహన్నుత్తరాం దివం గవయే నమః. ఓం హ్రూం రుద్రోగం మమ సూర్య సూర్యాయ నమః. ఓం హ్రైం హరిమానం చ నాశయ భానవే నమః. ఓం హ్రౌం శుకేషు మే హరిమానం కఠాయ నమః. ఓం హ్రా రూపణాకాశు దద్మసే పూష్ణే నమః. ఓం హ్రా అతోహార ప్రవేశు మే హిరణ్యగర్భాయ నమః. ఓం హ్రీం హరిమాణం నిదద్మసే మరీచయే నమః. ఓం హ్రూం ఉదగాదయమాదిత్యః ఆదిత్యాయ నమః. ఓం హ్రైం విశ్వేన సహసా సహ సవిత్రే నమః. ఓం హ్రౌం విశంతం మమ రంధ్రయన్ అర్కాయ నమః. ఓం హ్రః మో అహం ద్విషతో రథం భాస్కరాయ నమః. ఓం హ్రాం హ్రీం ఉద్యన్నద్య మిత్రమః ఆరోహన్నుత్తరాం దివం మిత్రరవిభ్యాం నమః. ఓం హ్రూం హ్రైం రుద్రోగం మమ సూర్య హరిమాణం చ నాశయ సూర్యభానుభ్యాం నమః. ఓం హ్రౌం హ్రః శుకేషు మే హరిమాణం రూపణాకాశు దద్మసే ఖగపోషభ్యాం నమః. ఓం హ్రాం హ్రీం అతోహారిద్రవేషు మే హరిమాణం నిదద్మసే హిరణ్యగర్భమరీచిభ్యాం నమః. ఓం హ్రూం హ్రైం ఉదగాదయమాదిత్యః విశ్వేన సహసా సహ ఆదిత్య సవితృభ్యాం నమః. ఓం హ్రౌం హ్రః విశంతం మమ రంధ్రయన్ మో అహం ద్విషతో రథం అర్కభాస్కరాభ్యాం నమః. ఓం హ్రాం హ్రీం హ్రూం హ్రైం ఉద్యన్నద్య మిత్రమః ఆరోహన్నుత్తరాం దివం రుద్రోగం మమ సూర్య హరిమాణం చ నాశయ మిత్రరవి సూర్యభానుభ్యో నమః. ఓం హ్రౌం హ్రః హ్రాం హ్రీం శుకేషు మే హరిమాణం రూపణాకాశు దద్మసే అథోహారిద్రవేషు మే హరిమానం నిదద్మసే ఖగపూష హిరణ్యగర్భమరీచిభ్యో నమః. ఓం హ్రూం హ్రైం హ్రౌం హ్రః ఉదగాదయమాదిత్యః విశ్వేన సహసా సహ విశంతం మమ రంధయన్ మో అహం ద్విషతో రథం ఆదిత్య సవిత్రర్కభాస్కరేభ్యో నమః. ఓం హ్రాం హ్రీం హ్రూం హ్రైం హ్రౌం హ్రః ఉద్యన్నద్య మిత్రమః ఆరోహన్నుత్తరాం దివం రుద్రోగం మమ సూర్య హరిమాణం చ నాశయ శుకేషు మే హరిమాణం రూపణాకాశు దద్మసే మిత్రరవి సూర్యభాను ఖగపూషభ్యో నమః. ఓం హ్రాం హ్రీం హ్రూం హ్రైం హ్రౌం హ్రః అథోహారిద్రవేషు మే హరిమాణం నిదద్మసే उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु दद्मसि अथो हारिद्रवेषु मे हरिमानन्नि दद्मसि उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् मित्ररविसूर्यभानुखगभूष हिरण्यगर्भमरीच्यादित्यसवित्तर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपदि तत्र चारुचस्तदृचामण्डलगुम् सरुचाम् लोकोथय एष एतस्मिन्मण्डले चिर्दीप्यते तानि सामानि ससाम्नाम् लोकोथय एष एतस्मिन्मण्डले चिषिपुरुषस्तानि यजोगुंसि स यजुषा मण्डलगुम् स यजुषाम् लोकस्यैषात्रय्येव विद्या तपति य एषोऽन्तरादित्ये हिरण्मयः पुरुषः छायासु वच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः आदित्यो वै तेज ओजोबलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपाल कक्किङ्कम् तत्सत्यमन्नममृतो जीवो विश्व कतमस्वयम्भुब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यगुम् स लोकतामाप्नोत्येतासामेव देवतानागुम् सायुज्यगुम् शास्त्रितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छायासु वर्चलाम् वासमेत श्रीसूर्यनारायणस्वामिने नमः ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजा सृजेयेति नारायणात्राणो जायते मनः सर्वेन्द्रियाणि च खम् वायुर्ज्योतिराम पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावतः सर्वाणि च छन्दागुंसे नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवस्य नारायणः शक्रस्य नारायणः ह्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयो कश्चित् य एवम् वेदा स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येते अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्ययु रायस्पोषङ्गौ पत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेदा प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकारभुकारमकार इति तानेकधातमभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगि जन्मसंसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात् तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदतर्वशिरो यो दीते प्रातरधेयानो रात्रिकृतम् पापम् नाशयति सायमधेयानो दिवसकृतम् पापम् नाशयति माध्यन्दिनमादित्याभिमुखो धेयान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायणसायुज्यमवाप्नोति यदेवम् वेद इत्युपनिषत् सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रचय्यसाहिने नमो भयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति